सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रबाद् स भूमिम् विश्वतो वृत्तात्य तिष्ठद्दशाङ्गुलम् त्रिभिः पद्भिर्द्यावरोहत्वादस्तेहाभवत्पुराः तथा व्यक्रमन्विश्वम् नशानशरे अनो पावन्तो अस्य महिमानस्ततो ध्यायांशपूरुषः पादोऽस्य विश्वाः भूतानि त्रिपादस्यामृतम् दिवि पुरुष एवेदम् सर्वम् यद्भूतम् यच्च भाव्यम् उदामृतत्वस्येश्वरोऽयन्नेनाभवत्सः यत्पुरुषम् यदधुःखविधाम् व्यकल्पयन् मुखम् किमस्ति किम् बाहूरोच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यो भवत् मध्यन्तरस्य यद्वैश्च पद्भ्याम् श्रोद्रो अजायत चन्द्रमा मनसो जातश्चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीर्न्दरिक्षम् शीर्षाद्यौ समवर्धत पद्भ्याम् भूमिर्दिशश्रोत्रात्तथा लोकाम् अकल्पयन् विराडग्रे समभवद्विराजो अधिपूरुषः सदात्यरिच्यतमश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषाः देवायज्ञमलम् मदा वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मशरद्धरि तैयज्ञम् प्रावृषा प्रोक्षन् पुरुषम् जातमग्रशः तेन देवायजन्तसाध्यावसवश्चरे तस्मादश्वाजायन्तरेषयेतोः भयादरः दावो भयज्ञे तस्मात्तस्माद्याता अजावयाः तस्माजज्ञातसमाहुतरजः सामाहानिजज्ञे छन्दो भजज्ञे तस्माद्यजस्तस्मादजायत तस्माद्यज्ञात् सर्वहुतः सम्भृतम् मृढराज्यम् अजोंस्तांश्चक्रे वारण्यारण्या ग्राम्याश्चरे सप्तास्यासन् परिधरस्ते सप्त सविधः कृताः देवायद्यज्ञन्तम् वानावद्धम् पुरुषम् वसुम् मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततेः राज्ञः सोमस्याजायन्त जातस्य पुरुषादधिः